इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी जापान चीन द्वयोः राष्ट्रयोः यात्रायाः प्रथमे चरणे अद्य प्रातः जापानदेशं सम्प्राप्तवान्। असौ टोक्यो नगरे भारत जापानयोः पञ्चदशे वार्षिक शिखर सम्मेलने अद्य भागं भजिष्यति। स्वप्रस्थान वक्तव्ये श्रीमोदी दृढविश्वासं प्रकटितवान् यत् जापान चीन देशयोः कृते एषा यात्रा भारतस्य राष्ट्रियहितं प्राथमिकतां च वर्धयिष्यति, अपि च क्षेत्रीय वैश्विक शान्तिं सुरक्षां सुस्थिर विकासं च प्रवर्धयितुं निर्णायक सहयोगस्य निर्माणे च योगदानं करिष्यति इति। सः अवदत् यत् भारत जापान देशयोः विशिष्ट सामरिक वैश्विक सहभागित्वस्य अग्रिम चरणस्य निर्माणाय ध्यानं प्रदीयते, यतः विगतेषु एकादश वर्षेषु प्रगतिम् अकरोत् इति। असौ अवदत् यत् जापान देशस्य प्रधानमन्त्री शिगेरु इशिबा इत्येषः भारत जापान देशयोः आर्थिक निवेश सम्बद्धानां सहयोगाय व्याप्तिं महत्वाकांक्षां च विस्तारयितुं नूतन उदयोन्मुख प्रौद्योगिकीषु ध्यानं प्रदीयते। सः अवदत् यत् इयं यात्रा द्वयोः राष्ट्रयोः मध्ये सम्बन्धानां सभ्यतानां सांस्कृतिक बन्धनानां च सुदृढीकरणस्य अवसरः अपि भविष्यति इति। प्रधानमन्त्री मोदी अवदत् यत् जापानदेशात् सः तियाजिन नगरे सांघाई सहयोग संघटन शिखर सम्मेलने भागं ग्रहीतुं राष्ट्रपतेः शी जिनपिंग वर्यस्य आमन्त्रणे चीनदेशं गमिष्यति इति। सः अवदत् यत् भारतः SCO इत्यस्य सक्रियः रचनात्मकः च सदस्यः अस्ति। सः अवदत् यत् सः शिखर सम्मेलनावधौ राष्ट्रपतिना शी जिनपिंग, रूसदेशस्य राष्ट्रपतिना व्लादिमीर पुटिन इत्यादिभिः नेतृभिः सह मिलितुम् उत्सुकः अस्ति इति। केन्द्रीय सूचना प्रौद्योगिकी मन्त्री अश्विनी वैष्णवः अथ गुजरात राज्यस्य मुख्यमन्त्री भूपेन्द्र पटेलः अहमदाबादनगरस्य साणन्दनगरे CG पावर इत्यस्य प्रथमस्य सेमीकण्डक्टर आउटसोर्स्ड असेम्बली इत्यस्य परीक्षण सौकर्यस्य प्रायोगिक संयन्त्रस्य च उद्घाटनम् अकुरुताम्। तावत् अस्मिन् अवसरे श्रीवैष्णवः एतत् प्रायोगिक प्रकल्पं भारतस्य सेमीकण्डक्टर इति अर्धचालक क्षेत्रोद्योगाय महत्वपूर्णम् इति अवोचत्। अस्यां निर्माणशालायां प्रथमस्य मेड इन इंडिया सेमीकण्डक्टर चिप इत्यस्य उत्पादनं भविष्यति इति अघोषयत्।
Globally, by 2032, there will be a shortfall of about 1 million semiconductor talent. That's what the experts predict. So we partnered with 270 universities and gave some of the most latest tools to these universities, tools from Siemens, from Cadence, from Synopsys, practically every important tool we have given to these universities.
भारत बांग्लादेशाभ्यां सीम्नि अपराध निवारणाय संयुक्त प्रयत्नानाम् अभिवृद्धये च संकल्पः सन्धृतः। बांग्लादेशस्य पिलखाना मुख्यालये आयोजितस्य चतुर्दिवसीय महानिदेशक स्तरीय सीमा सम्मेलनानन्तरम् एकस्मिन् संयुक्त वक्तव्ये प्रतिबद्धतेयं प्रकाशिता। उभाभ्यामपि तस्कर कर्मणः अवैध प्रवेशस्य आतंकवादस्य च दूरीकरणार्थं समन्वित सीमा प्रबन्धन योजनायाः महत्वोपरि बलं प्रदत्तम्। उभाभ्यामपि पक्षाभ्याम् आतंक गतिविधीनां निराकरणाय असहिष्णुतायाः नित्यनुसरणाय च स्वकीया प्रतिबद्धता प्रकटिता। ऐषमः पुरुषाणां हॉकी एशिया चषक क्रीडायां भागं ग्रहितेभ्यः एशिया महाद्वीपस्य सर्वेभ्यः दलेभ्यः क्रीडकेभ्यः अधिकारिभ्यः समर्थकेभ्यश्च प्रधानमन्त्रिणा नरेन्द्रमोदिना शुभाशयाः प्रेषिताः। एकस्मिन् जनसञ्चार सन्देशे श्रीमोदी अवदत् यत् हॉकी क्रीडा सम्पूर्णे भारते एशिया महाद्वीपे च कोटिशः जनानां हृदये सर्वदा विशिष्टं स्थानं धारयति। अद्य राष्ट्रिय क्रीडा दिवसः आचर्यते। प्रसिद्ध हॉकी क्रीडक मेजर ध्यानचंद वर्यस्य जयन्त्यवसरे प्रतिवर्षम् अगस्त मासस्य 29 दिनांके अयम् दिवसः आचर्यते। 25-2000 राष्ट्रिय क्रीडा दिवसस्य विषयः अस्ति शान्तियुत समावेशी समाजं प्रोत्साहनाय क्रीडा इति वार्ताः।